अथ आत्मवीरेश्वरस्तोत्रम् ध्यानम् विभूतिभूषितं बालम् अष्टवर्षाकृतिं शिशुम् आकर्णपूर्णनेत्रं च सुरक्तदशनच्छदनं चारुपिङ्गजटामौलिं नग्नं प्रहसिताननं शैशवोचितनेपथ्यधारिणं चित्रहारिणं पठन्तं श्रुतिसूक्तानि हसन्तं च स्वलीलया एवं वीरेश्वरं ध्यात्वा स्तोत्रमेतज्जपेन्नरः एकं ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नानास्ति किञ्चित् एको रुद्रो न द्वितीयो वतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् एकः कर्ता त्वं हि सर्वस्य शम्भो नानारूपेष्वेकरूपोऽप्यरूपः यद्वत्प्रत्यं वर्क एकोऽप्यनेकस्तस्मान्नान्यं त्वां दिनेशं प्रपद्ये रज्जौ सर्पशुक्तिकायाञ्च रौप्यं नैरपूरस्तन्मृगाख्ये मरीचौ यद्वत्तद्वद्विश्वगीशप्रपञ्चो यस्मिन् ज्ञाते तं प्रपद्ये महेशम् तो ये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः पुष्पे गन्धो दुग्धमध्ये च सर्पिर्यत्तच्छम्भो त्वं ततस्त्वां प्रपद्ये शब्दं गृह्णास्य श्रवास्त्वं हि जिघ्रेर्घ्राणस्त्वं व्यङ्ग्रियारासि दूरात् कस्त्वां सम्यक् वेद्यतस्त्वां प्रपद्ये नो वेदस्त्वामीश साक्षात् हि वेद नो वा विष्णुर्नो विधाताखिलस्य नो योगीन्द्रानेन्द्रमुख्याश्च देवा भक्तो वेदत्वामतस्त्वां प्रपद्ये नो ते गोत्रं नापि जन्मापि नाख्या नो वा रूपं नैव शीलन्न देशः इत्थं भूतोऽपीश्वरस्त्वं त्रिलोक्याः सर्वान् कामान् पूरयेस्तद्भजे त्वां त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोति शान्तः त्वं वै बुद्धस्त्वं युवा त्वं च बालस्तत्किं यत्त्वं भास्यतस्त्वां नतोऽस्मि स्तुत्वेति विप्रो निपपात भूमौ सदण्डवद्या वदति वरिष्ठः तावत् स बालोऽखिलवृद्धवृद्ध प्रोवाच भूदेव वरं वृणीहि तत उत्थाय रिष्टात्मा मुनिर्वैश्वानरकृति प्रत्यब्रवीत् किमज्ञानं सर्वज्ञस्य तव प्रभो सर्वान्तरात्मा भगवान् सर्वसर्वगतो भवान् याञ्च्यां प्रतिनियुङ्क्ते मां किमेषो दैन्यकारिणीम् इति श्रुत्वा वचस्तस्य देवा वैश्वानरस्य शुचे शुचिव्रतस्याथ शुचिस्मित्वा प्रविच्छिशुः बाल उवाच त्वया शुचे शुचिस्मत्यां योऽभिलाष कृतो हृदि अचिरेणैव कालेन स भविष्यत्य संशयः तव पुत्रत्वमेष्यामे शुचिस्मत्यां महामते ख्यातो गृहपतिर्नाम्नां शुचिः सर्वामरप्रियः अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् अब्दं त्रिकालपठनात् कामदं शिवसन्निधौ एतत् स्तोत्रस्य पठनं पुत्रपौत्रधनप्रदं सर्वशान्तिकरं चापि सर्वापत्यरिनाशनं स्वर्गापवर्गसम्पत्तिकारकं नात्र संशयः प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शाम्भवं वर्षं जपन्निदं स्तोत्रं पुत्रः पुत्रवान् भवेत् वैशाखे कार्तिके माघे विशेषनियमैर्युत यः पठेत् स्नानसमये लभते सकलं फलं कार्तिकस्य तु मासस्य प्रसादात् अहमव्यय तव पुत्रत्वमेष्यामि यस्त्वन्यस्तत्पठिष्यति अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् गोपनीयं प्रयत्नेन महाबन्ध्या प्रसूतिकृत् स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसन्निधौ अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशय इत्युक्त्वान्तर्दधे बाल सोऽपि विप्रो गृहं गतः इति श्रीस्कन्दपुराणे काशीखण्डे आत्मावीरेश्वरस्तोत्रं सम्पूर्णम्।